एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतम् भाद्रस्य अष्टादश दिवसे प्रारब्धम् ग्राम नगर वडा स्थानीयाधिवेशनम् अष्टात्रिंशति जनपदेषु सम्पन्नम् वर्तते। प्रकाशित क्रियाशील सदस्यता नामावलीनाम् षट्पञ्चाशतो जनपदानाम् मध्ये गतदिनम् यावत् अष्टात्रिंशति जनपदेषु वडा स्थानीयाधिवेशनम् सम्पन्नमिति कांग्रेस दलस्य केन्द्रीय कार्य निर्वाचन समितिः ज्ञापयति। प्रायः वडा स्थानेषु सर्वसम्मत्या, कतिचित् स्थानेषु मतदानस्य माध्यमेन च वडास्थानीया कार्यसमिति संगठिता, क्षेत्रीय प्रतिनिधयश्च प्रचिताः सन्ति। प्रकाशित क्रियाशील सदस्यता नामावलीनाम् जनपदानाम् मध्ये अष्टादश दिवसे पञ्चत्रिंशति जनपदेषु शनिश्चरवासरे झापा मुस्ताङ जनपदयोः ह्यो दाङ जनपदे च वडास्थानीयाधिवेशनम् सम्पन्नमिति केन्द्रीय निर्वाचन समितेः संयोजकः माधव प्रसाद यादवः अज्ञापयत्। नेकपा एकीकृत समाजवादिना प्रदेश प्रभारिणः निर्धारिताः सन्ति। अपरव्यवस्थायाः अभिधानम् यावत् दलेन प्रथम प्रदेशे घनेन्द्र बस्नेत, द्वितीय प्रदेशे धर्मनाथ शाह, बागमती प्रदेशे केदार न्यौपाने, गण्डकी प्रदेशे केशवलाल श्रेष्ठ, लुम्बिनी प्रदेशे भागवत विश्वासी, कर्णाली प्रदेशे प्रकाश ज्वाला चेति जनेभ्यो दायित्वम् दत्तमस्ति। सुदूरपश्चिम प्रदेशस्य प्रभारी पश्चात् निर्धारयिष्यते इति दलमेतद् ज्ञापयति। उपत्यका विशेष प्रदेशे विश्वनाथ प्याकुरेलाय, सम्पर्क विशेष प्रदेशे विजय गुरूङ इत्यस्मै, संयुति प्रभारी पदे डाक्टर विजय पौडेलाय, प्रचार विभाग प्रमुखे जगन्नाथ खतिवडा विधेयाय, प्रवास क्षेत्रे श्रीप्रसाद साहाया च दायित्वम् दत्तम् अस्ति। न्यायालय निर्वाचन सम्बद्ध कार्याणाम् विलोकनस्य दायित्वम् राजेन्द्र पाण्डे, विजय पौडेलः, रामकुमारी झाँक्री चेतेभ्य, संसदीय कार्याणाम् दायित्वम् च विरोध खटिवडा, कल्याणी खड्का, जीवनराम श्रेष्ठ, ठगेन्द्र पुरी चेती जनेभ्यश्च निर्धारितमस्ति। एवमेव वरिष्ठ नेतो झलनाथ खनालस्य संयोजकत्वे त्रयोदश सदस्यीया प्राविलेखन प्रारूप निर्माण समितिः, दैनिक कार्याणाम् सञ्चालनाय डाक्टर बेदुराम भूषालस्य संयोजकत्वे षट् सदस्यीया समितिश्च संघटिते स्तः। सुदूरपश्चिम प्रदेशे अतिरिक्तेन प्रदेश सभाया सदस्य त्रयेण नवसंगठितस्य नेकपा एकीकृत समाजवादी दलस्य प्रचयनानन्तरम् दलम् एतत् नेकपा एमाले दलात् विपुलतरम् सम्भूतमस्ति। एतदनु सुदूरपश्चिम प्रदेशे एमाले दलम् त्यक्त्वा नेकपा एकीकृत समाजवादी दलस्य सत्यापन कर्तृणाम् प्रदेश सभाया सदस्यानाम् संख्या त्रयोदश प्राप्तास्ति। सुदूरपश्चिम प्रदेशे एमाले दलात् सभामुखेन सहिताः पञ्चविंशति सांसदाः आसन्। एवमेव द्वितीय प्रदेशेऽपि नेकपा एकीकृत समाजवादी दलम् नेकपा एमाले दलात् विपुलतरम् सम्भूतम् वर्तते। ह्यः प्रदेशसभायाः सदस्यद्वयेन सीता गुरूङ इत्यनया सन्दूर प्रसाद विश्वकर्मणा च जनकपुरधामवर्तिनम् प्रदेश निर्वाचन कार्यालयम् प्राप्य दलसत्यापनस्य अनन्तरम् एकीकृत समाजवादी दलम् प्रदेशसभायाम् एमाले दलात् विपुलतरम् सम्भूतमस्ति। अधुनावधि द्वितीय प्रदेशे नेकपा एकीकृत समाजवादिनः पक्षे द्वादशभिः प्रदेशसभा सदस्यैः सत्यापनम् विहितम् वर्तते। एवमेव द्वितीय प्रदेशे जनता समाजवादी दलस्य अतिरिक्तेन प्रदेशसभायाः सदस्यत्रयेण लोसपा नाम लोकतान्त्रिक समाजवादी दलम् प्रचितमस्ति। ह्य प्रदेश निर्वाचन कार्यालयम् प्राप्य प्रदेशसभा सदस्यै अभिराम शर्मणा, रानी शर्मणा, उपेन्द्र महतो विधेयेन च लोसपा दलस्य पक्षे सत्यापनम् विहितम्। एतत्पूर्वम् जसपा दलात् द्वादशभिः जनैः सत्यापनम् विहितम् आसीत्। प्रधानमन्त्री शेरबहादुर देउवा कथयति, मानवानाम् क्रय विक्रयणम् रुद्धुम् स्तरत्रयस्यैव सर्वकारैः प्रयासा विधीयमानो वर्तते। मानवानाम् क्रय विक्रय नयनानयन विरुद्धस्य पञ्चदश राष्ट्रिय दिवसस्य उपलक्ष्ये महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयेन ह्य काष्ठमण्डपे आयोजिताय कार्यक्रमाय प्रदत्ते शुभकामना सन्देशे प्रधानमन्त्रिणा देवाभिधेन नेपालस्य संविधानस्य व्यवस्थाया अनुसारेण मानवानाम् क्रय विक्रयणम् रुद्धुम् सर्वकारः प्रतिबद्धो वर्तते इत्युल्लिखितमस्ति। नेपाल सर्वकारेण प्रतिवर्षम् भाद्रस्य विंशे दिवसे मानवानाम् क्रय विक्रय नयनानयन विरुद्धस्य राष्ट्रिय दिवस समायोज्यमानो वर्तते। गृहमन्त्रालयेन मित्रराष्ट्रस्य सम्बन्धे प्रभावसर्जकम् गतिविधिम् प्रति आपत्तिः प्रकटिता वर्तते। मन्त्रालयेन ह्य विज्ञप्तिम् प्रकाश्य कतिपय दिनेभ्यः प्रतिवेशी मित्रराष्ट्रस्य प्रधानमन्त्रिणः प्रतिष्ठायाम् प्रभावसर्जनत्वेन विहितान् समाघोषोच्चरणम्, जनप्रदर्शनम्, पुत्तलिका दहनं चेति गतिविधिन् प्रति गृहमन्त्रालयस्य गभीरं ध्यानाकर्षणं सम्भूतमिति ज्ञापयित्वा तथाविधान उच्छृंखल गतिविधिन् प्रति आपत्ति प्रकटिता वर्तते। प्रतिवेशी राष्ट्रेण सह उत्पन्नाः समस्याः वार्तया कूटनीतिक माध्यमेन च समाधीयमानाः सन्तीति ज्ञापयित्वा भविष्यत्यपि तथाविध समस्याः वार्ता संवाद कूटनीतिनां माध्यमेन समाधास्यन्ते इति मन्त्रालयस्य प्रवक्त्रा फणीन्द्रमणि पोखरेलेन प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। मन्त्रालयेन मित्र राष्ट्रस्य विरुद्धे लक्षित गतिविधीनां नियन्त्रणाय तथाविध गतिविधिषु संलग्नाः भूत्वा विधेः उल्लङ्घनकारिणो जनाः दण्यन्ते इति प्रत्यादिष्टञ्च अस्ति। चिकित्सा शिक्षा नियमावल्या परिमार्जनाय सांसदाः बलं ददति। प्रतिनिधिसभाय शिक्षा स्वास्थ्य समिते चिकित्सा शिक्षा योगेन सञ्चालिताया परीक्षाया छात्रवृत्तेश सम्बन्धे विमर्शनाय ह्य सिंहप्रासादे उपविष्टे उपवेशे सांसदाः नेपालस्य संविधानस्य चिकित्सा शिक्षाधिनियमस्य च मर्मणः अनुरूपं गतविक्रमवर्षीयां राष्ट्रिय चिकित्सा शिक्षा नियमावलीं परिमार्जयितुं परामृशन्। सांसदाः वर्तमान नियमावल्यां विद्यमाना सुन्यूनता दुर्बलतासु सुधारं विधाय पश्चवर्ती वर्ग महिला अल्पसंख्यक समुदायानां विद्यार्थिनां पक्षे पृथक मापदण्डं निर्मातुं परामृशन्। उपवेशे राष्ट्रिय चिकित्सा शिक्षा योगस्य उपाध्यक्ष प्राध्यापक डा श्रीकृष्णगिरी अगदत् विगतकालिक न्यूनता दुर्बलतासु सुधारः विहितोऽस्तीति कारणात् योग्यता क्रमानुसारेणैव विद्यार्थिभिः छात्रवृत्ति अध्ययनावसरश्च प्राप्तौ स्तः। नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशकस्य नियुक्तेर्विरुद्धे पञ्जीकारितम् आदेशाभियाचन निवेदनं ह्योऽपि विलोकन समयाभाव सूच्यां समाविष्टम्। प्रधान न्यायाधीशस्य चोलिन्द्र शमशेर जबरा इत्यस्य न्यायपीठाय निर्धारितं नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशक पदे कुलमान घिसिङ इत्यस्य नियुक्तेः निरसनम् अभियाच्य पञ्जीकारितं निवेदनम् एतत् विलोकन समयाभाव सूच्यां समाविष्टमस्ति। प्रधान न्यायाधीशेन जबरा इत्यनेन एतस्य निवेदनस्य श्रवणाय ह्य स्वस्यैव न्यायपीठे प्रस्तुति निर्धारिता आसीत्। निवर्तमानेन कार्यकारी निर्देशकेन हितेन्द्र देव साक्येन नियुक्तेः निरसनम् अभियाच्य श्रावणस्य द्वात्रिंशे दिवसे सर्वोच्च न्यायालये आदेशाभियाचन निवेदनं पञ्जीकारितम् आसीत्। ह्य आराष्टम् अतिरिक्तेषु सहस्रे ऊननवत्यां च जनेषु कोरोना विषाणो संक्रमणस्य पुष्टिभूतायं सत्यम् अतिरिक्ता सहस्रं चतुस्त्रिंशदधिक पञ्चशतं च जना कोरोना संक्रमणात् मुक्ता सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण ह्य कोरोना संक्रमणात् अतिरिक्ता विंशतिर्जना मृता। मन्त्रालयस्य अनुसारेण ह्यस्तनावधि आराष्टम् एकत्रिंशत् सहस्राणि अष्टाचत्वारिंशदधिक शतद्वयञ्च कोरोना विषाणो सक्रिय संक्रान्ता जना सन्ति। एवमेव ह्य अतिरिक्त हि त्रिपञ्चाशता सहस्रै द्व्यशीत्यधिक शतेन च जनै कोरोना संक्रमण विरोधी टीकाकरणं गृहीतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवाविदेन दलस्य भातृ संस्थाया नेपाल विद्यार्थी संघस्य केन्द्रीय तदर्थ कार्य समितेः महामन्त्री पदे सुनसरी जनपदस्य कपिलेश्वर यादव नियुक्तो वर्तते। नेपाली कांग्रेस दले तात्कालिक नेपाल लोकतान्त्रिक फोरम दलस्य सांगठनिक संरचनाया संयोजनाय विहिताया सहमतेः अनुसारेण यादव इह संघस्य महामन्त्री पदे नियुक्त इति दल केन्द्रीय कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन प्रकाशित विज्ञप्तौ उल्लिखितमस्ति इति समाचारः।